ॐ नमो भगवते वासुदेवाय। अथ पञ्चदशोऽध्यायः। मैत्रेय उवाच, प्राजापत्यं तु तत्तेजः परतेजोहनं दितिः, दधार वर्षाणि शतं शङ्कमानासुरार्दनात्। लोके तेन हता लोके लोकपाला हतौजसः, न्यवेदयन् विश्वसृजे ध्वान्तव्यतिकरं दिशां। देवा ऊचुः, तम एतद्विभो वेत्थ संविघ्नाय द्वयं भृशम्। न यव्यक्तं भगवतः कालेनास्पृष्टवर्त्मनः, देवदेव जगद्धातर्लोकनाथ शिखामणे, परेषामपरेषां त्वं भूतानामसि भाववित्। नमो विज्ञानवीर्याय माययेदमुपेयुषे, गृहीतगुणभेदाय नमस्ते व्यक्तयो नये। ये त्वानन्येन भावेन भावयन्त्यात्मभावनम्, आत्मनिप्रोत भुवनं परं सदसदात्मकम्, तेषां सुपक्वयोगानां जितश्वासेन्द्रियात्मनां, लब्धयुष्मत्प्रसादानां न कुतश्चित् पराभवः। यस्य वाचा प्रजाः सर्वा गावस्तन्त्येव यन्त्रिताः, हरन्ति बलिमायत्तास्तस्मै मुख्याय ते नमः। सत्त्वं विधत्स्व शम्भूमन्स्तमसा लुप्तकर्मणाम्, अदभ्रदयया दृष्ट्या आपन्नान्नर्हसीक्षितुम्। एष देवदितेर्गर्भ ओजः काश्यपमर्पितम्, दिशस्तिमिरयन् सर्वा वर्धतेऽग्निरिवैधसि। मैत्रेय उवाच, सप्रहस्य महाबाहो भगवान् शब्दगोचरः, प्रत्याचष्टात्मभूर्देवान् प्रीणन् रुचिरया गिरा। ब्रह्मोवाच, मानसा मे सुता युष्मत्पूर्वजाः सनकादयः, चेरुर्विहाय सा लोकान् लोकेषु विगतस्पृहाः। त एकदा भगवतो वैकुण्ठस्यामलात्मनः, ययुर्वैकुण्ठनिलयम् सर्वलोकनमस्कृतम्। वसन्ति यत्र पुरुषाः सर्वे वैकुण्ठमूर्तयः, ये निमित्तनिमित्तेन धर्मेणाराधयन् हरिम्। यत्र चाद्यः पुमानास्ते भगवान् शब्दगोचरः, सत्त्वं विष्टभ्य विरजं स्वानां नो मृडयन् वृषः। यत्र नैश्रेयसं नाम वनं कामदुघैर्द्रुमैः, सर्वर्तु श्रीभिर्विभ्राजत् कैवल्यमिव मूर्तिमत्। वैमानिका सललनाश्चरितानि यत्र गायन्ति लोकशमलक्षपणानि भर्तुः, अन्तर्जलेनु विकसन् मधुमाधवीनां गन्धेन खण्डित धियोऽप्यनिलं क्षिपन्तः। पारावतान्यभृतसा रसचक्रवाकदात्यूह हंसशुकतित्तिरिबर्हिणां यः, कोलाहलो विरमते चिरमात्रमुच्चैर्भृङ्गाधिपे हरिकथामिव गायमाने। मन्दारकुन्दकुरबोत्पलचम्पकार्णपुन्नागनागबकुलाम्बुजपारिजाताः, गन्धेऽर्चिते तुलसिकाभरणेन तस्या यस्मिंस्तपः सुमनसो बहुमानयन्ति। यत्सङ्कुलं हरिपदा नतिमात्रदृष्टैर्वैदुर्यमारकतहेममयैर्विमानैः, येषां बृहत्कटितटा स्मितशोभिमुख्यः कृष्णात्मनां नरजातदुरुत्स्मयाद्यैः। श्रीरूपिणी क्वणयति चरणारविन्दं लीलाम्बुजेन हरिसद्वनिमुक्तदोषा, संलक्ष्यते स्फटिककुड्य उपेतहेम्नि सम्मार्जति वयदनुग्रहणेऽन्ययत्नः। वापि सुविद्रुमतटा स्वमलामृताप्सु प्रेष्यान्विता निजवने तुलसीभिरीशम्, अभ्यर्चति स्वलकमुन्न समीक्ष्य वक्त्रमुच्छेषितं भगवतेत्यमताङ्गयच्छ्रीः। यन्न व्रजन्त्यगभिदो रचनानुवादाच्छृण्वन्ति येऽन्यविषया कुकथामतिग्नीः, यास्तु श्रुता हतभगैर्नृपिरात्तसारास्तान्स्तान् क्षिपन्त्य शरणेषु तमस्सुहन्त। येभ्यर्थितामपि च नो नृगतिम् प्रपन्ना ज्ञानम् च तत्त्वविषयम् सह धर्म यत्र, नाराधनम् भगवतो वितरन्त्यमुष्य सम्मोहिता विततया बत मायया ते। यच्च व्रजन्त निमिषामृषभानुवृत्त्या दूरेयमायुपरिणस्पृहणीयशीलाः, भर्तुर्मिथ सुयशस कथनानुराग वैक्लव्यबाष्पकलया पुलकीकृताङ्गाः। तद्विश्वगुर्वधिकृतम् भुवनैकवन्द्यम् दिव्यम् विचित्र विबुधाग्र्यविमानशोचिः, आपुः परामुदमपूर्वमुपेत्य योग मायाबलेन मुनयस्तदथो विकुण्ठम्। तस्मिन्नतीत्य मुनय षडसज्जमानाः कक्षा समान वयसा वस सप्तमायाम्, देवावचक्षतगृहीतगदौ परार्ध्य केयूरकुण्डलकिरीटविटङ्कवेशौ, मत्तद्विरेफवनमालिकया निवीतौ विन्यस्तया सितचतुष्टय बाहुमध्ये, वक्त्रम् भ्रुवा कुटिलया स्फुटनिर्गमाभ्याम् रक्ते क्षणेन च मनाग्रभसम् दधानौ। द्वार्येतयोर्निविविशुर्मिषतोरपृष्ट्वा पूर्वायथा पुरटवज्रकपाटिकायाः, सर्वत्र ते विषमया मुनय स्वदृष्ट्या ये संचरन्त्यभिहता विगताभिशङ्काः तान् वीक्ष्य वातरशनांश्चतुरः कुमारान् वृद्धान् दशार्धवयसो विदितात्मतत्त्वान् वेत्रेण चास्खलयता मतदर्हणांस्तौ तेजो विहस्य भगवत् प्रतिकूलशीलौ ताभ्याम् मिषत्स्व निमिषे सुनिषिध्यमाना स्वरहत्तमायपि हरे प्रतिहारपाभ्याम् ऊचू सुरत्तमदिदृक्षित भङ्गैषत् कामानुजेन सहसा तौ पप्लुताक्षाः मुनय ऊचुः को वामि हैत्य भगवत् परिचर्ययोच्चैस्तद्धर्मिणाम् निवसताम् विषमस्वभावः तस्मिन् प्रशान्त पुरुषे गत विग्रहे वाम् को वात्मवत् कुहकयोः परिशङ्कनीयः नह्यन्तरम् भगवतीह समस्त कुक्षा वात्मानमात्मनि नभो नभसीव धीराः पश्यन्ति यत्र युवयोः सुरलिङ्गिनोः किम् व्युत्पादितम् युदरभेदि भयम् यतोऽस्य तद्वाममुस्य परमस्य विकुण्ठभर्तुः कर्तुम् प्रकृष्टमिह धीमहि मन्दधीभ्याम् लोकानितो व्रजतमन्तर्भावदृष्ट्या पापीयशस्त्रयैमे रिपवोऽस्य यत्र तेषामिति ऋतमुभावधार्य घोरम् तम् ब्रह्मदण्डमनिवारणमस्त्रपूगैः सद्यो हरेरनुचरा उरुबिभ्यतस्तत् पादग्रहावपततामतिकातरेण भूयादघोनि भगवद्भिरकारिदण्डो यो नौ हरेत सुरहेलनमप्यशेषम् मावोऽनुतापकलया भगवत्स्मृतिघ्नो मोहो भवेदिह तु नौ व्रजतोरधोधः एवम् तदैव भगवानरविन्दनाभः स्वानाम् विबुद्ध्यसदतिक्रममार्यरिद्यः तस्मिन् ययौ परमहंस महामुनीनामन्वेषणीयचरणौ चलयन् सः श्रीः तम् त्वागतम् प्रतिरितौ उपैकम् स्वपुम्भिस्ते चक्षताक्षविषयम् स्वसमाधिभाग्यम् हंसश्रियोर्व्यजनयो शिववायुलोलच्छुब्रातपत्रशशिकेशरशीकराम्बुम् कृत्स्नप्रसादसुमुखम् स्पृहणीयधाम स्नेहावलोककलया हृदि संस्पृशन्तम् श्यामे पृथा उरसि शोभितया श्रिया स्वश्चूडामणिम् सुभगयम् तमिवात्मधिष्ण्यम् पीतांशुके पृथुनितम् विनि विस्फुरन्त्या काञ्च्या लिभिर्विरुतया वनमालया च वल्गुप्रकोष्ठवलयम् विनता सुताम् सेविन्यस्तहस्तमितरेण धुनानमब्जम् विद्युत्क्षिपन्मकरकुण्डलमण्डनार्ह गण्डस्थलोन्न समुखम् मणिमत्किरीटम् दोर्दण्डषण्डविवरे हरतापरार्ध्य हारेण कन्धरगतेन च कौस्तुभेन अत्रोपसृष्टमिति चोत्स्मितमिन्दिराया स्वानाम् धिया विरचितम् बहुसौष्ठवाढ्यम् मह्यम् भवस्य भवताम् च भजन्तमङ्गम् नेमुर्निरीक्ष्य न वितृप्तदृशो मुदाकैः तस्यारविन्दनयनस्य पदारविन्द किम् जल्कमिष्ट तुलसी मकरन्दवायुः अन्तर्गतस्वविवरेण चकार तेषाम् सङ्क्षोभमक्षरजुषामपि चित्ततन्वोः तेवामुस्य वदनासित पद्मकोशमुद्वीक्ष्य सुन्दरतराधरकुन्दहासम् लब्धा शिशः पुनरवेक्ष्य तदीयमङ्घ्री द्वन्द्वम् न कारुणमणिश्रयणम् निदध्युः पुंसाम् गतिम् मृगयतामिह योगमार्गैर्ध्यानास्पदम् बहुमतम् नयनाभिरामम् पौंस्नम् वपुर्दर्शयानमनन्यसिद्धैरौत्पत्तिकैः समगृणन्युतमष्टभोगैः कुमारा ऊचुः योऽन्तर्हितो हृदिगतोऽपि दुरात्मनाम् त्वम् सोऽद्यैव नो नयनमूलमनन्तराद्धः यर्येव कर्णविवरेण गुहाम् गतो नः पित्रानुवर्णितरः भवदुद्भवेन तम् त्वाम् विदाम भगवन् परमात्मतत्त्वम् सत्त्वेन सम्प्रतिरतिम् रचयन्तमेषाम् यत्तेऽनुतापविदितैर्दृढभक्तियोगैरुद्गन्थयो हृदि विदुर्मुनयो विरागाः नात्यन्तिकम् विगणयन्त्यपि ते प्रसादम् किन्त्वन्यदर्पितभयम् भ्रुव उन्नयैस्ते येऽङ्गत्वदङ्घ्रिशरणा भवतः कथायाः कीर्तन्यतीर्थयशसः कुशलारसज्ञाः कामम् भवः स्ववृजिनैर्निरयेषु नस्ताच्चेतोलिवद्यदि नु ते पदयोरमेत वाचश्च न स्तुलसिवद्यदि तेऽङ्घ्रिशोभाः पूर्येत ते गुणगणैर्यदि कर्णरन्ध्रः प्रादुश्चकर्थ यदिदम् पुरुहूतरूपम् तेनेश निर्वृतिमवापुरलम् दृशो नः तस्माइदम् भगवते नम इद्विधेम योनात्मनाम् दुरुदयो भगवान् प्रतीतः ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीयस्कन्धे जय विजययोः सनकादिशापो नाम पञ्चदशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् യഥാ ത്വച്ചരണാം ഭോജേ രതി സ്യാദനപായിനീ.